नमस्सर्वेभ्यः अद्य सिद्धान्तकौमुद्याः बहुव्रीहिसमासप्रकरणे चतुर्थः पाठः मार्च् मासस्य षोडशः दिनाङ्कः येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः मुनित्रयं नमस्कृत्य तदुक्तीः प्रतिभां व्याकरणसिद्धान्तकौमुदीयं विरच्यते बहुव्रीहिसमासप्रकरणे पुम्बद्भावप्रकरणे स्मः स्त्रियाः पुम्बद्भाषितपुंस्कादनूसमानाधिकरणे स्त्रियामपूरणी प्रियादिषु इति सूत्रम् तेन पुम्बद्भावः विधीयते स्त्रियाः पुम्बत् स्त्रीवाचकस्य शब्दस्य पुम्बत् पुल्लिङ्गशब्दवद् रूपम् भवति तत्र केचन नियमाः सन्ति पूर्वपदे नियमाः सः स्त्रीवाचकशब्दः भवेत् भाषितपुंस्कः तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कम् समानम् प्रवृत्तिनिमित्तम् यत्र भवति प्रवृत्तिनिमित्तम् इस् दट् विच् द वर्ड् सेट्स् औट् टु टेल् दट् इस् द मेन् मीनिङ्ग् आफ् द वर्ड् सो इन् द सेम् मीनिङ्ग् ऐ मीन् रफ्ली स्पीकिङ्ग् किन् से दट् इन् द सेम् मीनिङ्ग् इफ् द वर्ड् इस् फौण्ड् इन् बोत् पुल्लिङ्ग एण्ड् स्त्रीलिङ्ग सो द स्त्रीलिङ्ग विल् बि भाषितपुंस्क स्त्रीवाचकशब्दः स्यात् भाषितपुंस्कः स्यात् उङ् अन्त भिन्नः उङ् इति स्त्री प्रत्ययः तद्भिन्नः शब्दः यदि समासे पूर्वपदभूतः तथा च उत्तरपदम् कथम् भवेत् समानाधिकरणम् स्त्रीलिङ्गम् इट् शुड् बि स्त्रीलिङ्ग समानाधिकरण्यमपि अपेक्षते पूरणप्रत्ययान्तम् न भवेत् इट् शुड् नाट् एण्ड् इन् अ पूरणप्रत्यय इट् इस् द्वितीया तृतीया एट्सेट्रा दोस् आर् आल् काल्ड् पूरणार्थप्रत्यया प्रियादिगणपठितश्च न भवेत् एतादृशम् उत्तरपदम् यद्यस्ति तर्हि पूर्वपदस्य स्त्रीवाचक आफ् द पूर्वपद विल् गेट् पुम्बद्भाव चित्रभुः इत्यस्ति चित्राः गावः यस्य सः इति बहुव्रीहि समासः चित्रा इति स्त्रीवाचकः भाषितपुंस्कः विशेषणम् चित्रः इति पुल्लिङ्गे चित्रा इति स्त्रीलिङ्गे उभयम् भवति इत्यतः भाषितपुंस्कः उङ्गन्तम् न अतः पूर्वपदनियमाः सर्वेऽपि सन्ति उत्तरपदनियमाः चित्राः गावः इत्युक्ते चित्रशब्दस्य गोशब्दस्य च समानाधिकरण्यमस्ति गोशब्दः स्त्रीलिङ्गम् पूर्णप्रत्ययान्तम् न प्रियादिगणेऽपि नास्ति अतः चित्रा इत्यत्र पूमद्भावे सति चित्र इति भवति चित्रगो इत्युक्ते उत्तरपदस्य गोस्त्रियोरुपसर्जनस्य इत्यनेन हस्वे चित्रभुः इति रूपम् रूपवद्भार्यः रूपवती भार्या यस्य सः इति विग्रहः रूपवती इति पूर्वपदस्य पुंवद्भावे सति रूपवत् इति भवति रूपवद्भार्यः त्रयाणां बहुव्रीहौ किं भवति इत्यपि दृष्टम् द्वयोः बहुव्रीहौ पूर्वं यदस्ति तत् पूर्वपदम् परत्र यदस्ति तद् उत्तरपदम् इत्यत्र सन्देहः नास्ति यदि त्रयाणां बहुव्रीहिः भवति तदा कथम् इति प्रश्नस्य कः आशयः यदि त्रयाणां बहुव्रीहिः तत्र उत्तरपदम् नाम चरमावयवः द लास्ट् पार्ट् आफ् द कम्पौण्ड् इस् काल्ड् उत्तरपद एण्ड् द उत्तरपद विल् बि स्त्रीलिङ्ग समानाधिकरण एट्सेट्रा पूर्वत्र यौ द्वौ शब्दौ स्तः तयोः पुंवद्भावः भवति वा न वा इति प्रश्नः तत्र यदि त्रिपद बहुव्रीहिः इफ् वि टेक् आल् द त्री वर्ड्स् टुगेदर् एण्ड् मेक् अ सिङ्गल् समास आस् बहुव्रीहि उपान्त्यस्य पुंवद्भावः उत्तरपदम् यदस्ति तस्मिन् परे तत्पूर्वत्र यत् पदम् नाम उपान्त्यम् द लास्ट् बट् वन् वर्ड् द पेनल्टिमेट् वर्ड् विल् गेट् पुंवद्भाव उदाहरणार्थम् जरति चित्रगुः अथवा चित्रा जरद्गुः जरति चित्रा गौः यस्य सः इति समासः त्रिपदबहुव्रीहिः जरति चित्रा इति उभे अपि पदे स्त्रीवाचके भाषितपुंस्के तथापि उपान्त्यस्यैव चित्रा इत्यस्यैव पुंवद्भावः चित्र इति भवति जरति इत्यस्य न भवति जरति चित्रगुः अथवा चित्रा जरति गौः यस्य सः इति विग्रहे चित्रा जरत् उपान्त्यस्य पुंवद्भावः भवति त्रिपदबहुव्रीहौ द्वन्द्वगर्भः बहुव्रीहिः यदि पूर्वं द्वन्द्वसमासः ततः बहुव्रीहिः तत्रापि उपान्त्यस्यैव पुंवद्भावः भवति चित्रा च जरती च यथा रामश्च लक्ष्मणश्च इति चित्रा च जगती च चित्रा जरत्यौ चित्रा जरत्यौ गावौ यस्य सः इति ततः बहुव्रीहिः आदौ द्वन्द्वे पुंवद्भावः न भवति ततः बहुव्रीहौ पुंवद्भावः भवति चित्रा जरती गो इति स्थिते चित्रा जरति इति समस्तस्य पुंवद्भावे चित्रा जरत् इति भवति चित्रा जरद्गुः You should remember that there is a difference in meaning between these two. In the Tripada Bahuvrihi, it is a single cow which is both Jarati, which is both old, and Chitra, multicolored. Whereas if you do a Dvandva, there are two cows. One of them is old and the other is multicolored. Chitra cha Jarati cha Chitra Jaratyau. Chitra Jaratyau gavo yasyasaha. So there is a difference in meaning. It is not the same meaning. It is just telling them, I mean, giving them to show the difference in form. Okay. So, this is not the same samasta, it will not convey the same sense. Karmadharaya purva padaha bahuvrihihi. Adau purvayohu karmadharaya kriyate tataha bahuvrihihi. Yatha, jarati chasau chitra cha. Jarat chitra. Jarat chitra gauhu yasyasaha jarat chitra guhu. उभयोः पुंवद्भावः भवति आदौ कर्मधारय समासेऽपि पुंवद्भावः भवति प्रथमस्य पदस्य जरच्चित्रा इति भवति जरच्चित्रा गौः यस्य सः तत्रापि पुंवद्भावः जरच्चित्रगुः यदि कर्मधारय पूर्वपदः पूर्वयोः द्वयोः कर्मधारये कृते ततः बहुव्रीहौ कृते उभयोः पुंवद्भावः जरच्चित्रगुः अथवा चित्रजरद्गुः इति नौ दिस् एण्ड् द फस्ट् वन् बोत् कन्वे द सेम् मीनिङ्ग् Okay, it is a single cow which is Jarati and Chitra. Same is given by either direct Tripada Bahuvrihi or Karmadharaya followed by Bahuvrihi. But Dvandva followed by Bahuvrihi does not give the same meaning. Karmadharaya Uttarapadaha Bahuvrihi. You can also do a Karmadharaya for the last two words and then combine it in Bahuvrihi with the first. Tadapi Ubhayohu Bhumadhavaha Bhavati Kintu Tatra Samasantaha Api Bhavati. चित्र जरद गवी कह जरती गौहु इति कर्मधारयः एन ओल्ड कौ जरती गौहु इति कृते जरद गो इति स्थिते टच समासांतः ततः नीप भवति अतः जरद गवी इति रूपं चित्रा जरद गवी यस्य सः इति बहुव्रीहिः तत्र पुंवद्भावः भवति चित्र जरद गवी कह इति किन्तु रूपं भिन्नम् The rupa will be different in the third and fourth case, okay? Because you are adding that is a samasanta on go, and there is also kap as the samasanta for bahuvri. For the karmadharaya, we have tap samasanta, and for the bahuvrihi, we have kap. So the form will be chitra jarat gavi kaha or jarat chitra gavi kaha. Okay? So that is about the tripada bahuvrihi. If this is a special case, so we know what are all the possibilities. ततः स्त्रियाः पुंवद्भाषितपुंस्कादनुं समानाधिकरणे स्त्रियाम् अपूरणी प्रियादिषु इत्युक्तम् पूरणप्रत्ययान्ते परे पुंवद्भावो नास्ति प्रियादिगणपठिते पुंवद्भावः नास्ति तर्हि पूरणप्रत्ययान्ते परे किं भवति यत्र पूरणान्तार्थस्य प्राधान्यमस्ति तत्र पुंवद्भावः न भवति अप् समासान्तः भवति कल्याणी पञ्चमरात्रयः इति उदाहरणं कल्याणी पञ्चमी यासां रात्रीणां ताः इति विग्रहः दोस् नैट्स् आफ् विच् द फिफ्त् ईस् कल्याणी आस्पिशियस् तत्र समस्तपदेनापि रात्रिः एव उच्यते पञ्चमी इत्यनेनापि रात्रिरेव उच्यते अतः पूर्णान्तार्थस्य प्राधान्यमस्ति इति कृत्वा कल्याणी इत्यत्र पुंवद्भावः न भवति पञ्चमी इत्यत्र अप् समासान्तः भवति पञ्चमी अ ईकारस्य लोपे पञ्चम कल्याणी पञ्चमा रात्रयः इति यत्र पूरणान्तार्थस्य प्राधान्यं नास्ति तत्र पुंवद्भावः भवति कप् समासान्तः भवति कल्याणी पञ्चमी यस्य सः इति कृत्वा अन्यपदार्थः पक्षः यत्र अन्यपदार्थः पक्षः तत्र रात्रेः प्राधान्यं नास्ति ततः कल्याणी इत्यत्र कल्याण इति पुंवद्भावः भवति पञ्चमी इत्यस्य नदीसंज्ञात्वात् नद्युतश्च इत्यनेन कप् भवति कल्याणपञ्चमीकः पक्षः प्रियादगणपथिते उत्तरपदे किं भवति पुंवद्भावः न भवति कल्याणी प्रिया यस्य सः कल्याणी प्रियः सो द अदर् वर्ड्स् आफ् द प्रियादिगण आर् आल्सो गिवन् इन् द कौमुदी So now we will go on to the any questions from this part. So this is the sutra which directly deals with Pumvadbhava in Bahubrihi. Okay, Samanadhikarane Uttarapade Pumvadbhava iti yaduktam tadatraiva bhavati. But because he digressed into the Pumvadbhava, Dikshita brings in other sutras which are also concerned with Pumvadbhava. Okay, so this is Saprakarana. There might not be Bahubrihi at all. Tatra Bahubrihi samasaha nasyat. Bahubrihi samasaha yadyasti tarhi striyah pumvatityanenaiva Pumvadbhava. Kintu anyatrapi Pumvadbhava drishyate. Kutra kutra bhavati, kutra na bhavati, iti atraiva uchyate dikshitaihi. Tasiladishu akritta suchaha iti agrimam sutram. Tasiladishu akritta suchaha iti chedaha. Sriyah pumvat ityadi anuvartate. Tasiladishu kritta sujanteshu padeshu striyah pumvat syat. When followed by these pratyayas, Pumvadbhava takes place. So panchamyas tasil iti tasil pratyaha tasiladishu. Tata arabhya, sankhyayaha kriyabhya vrittiganane kritvasuch iti sutramasti, kritvasuch anteshu. So from tasil till kritvasuch, yeye pratyaha santi, teshu pareshu striyaha pumvat, pumvadbhavaha bhavati, sarveti tadhita pratyaha. Okay, 537 to 5417, all are tadhita pratyas. So when followed by these pratyas, there is pumvadbhava, is what the sutra says. So uttarapada parakatva bhavat purva sutrena aprapte vachanam. The main sutra sriya pumvat will not apply because there is no uttarapada. It is only a pratyaya which is following, there is no pada. Therefore the first one will not apply and we have this tasiladishu akrita suchaha. Kintu atra kimuchyate paninina kimuchyate from tasil till kritrasuch yeye santi sarvesham sarveshu pratyayeshu pareshu pumvadbhavo bhavati ityuchyate kintu pariganam kartavyam avyapti ativyapti pariharaya iti dikshitah. Avyaptihi ativyaptischa asti. Avyaptihi namaka ishtasthale apravrittihi. We require the sutra to operate in a particular case, it will not operate according to the definition given by the sutra. So that is called avyapti. Okay. For example, til thyan ityadayah santi pratyayah adhikarat bahihi pathah asmin adhikare 537 whatever was that 537 to 5417. So they are given outside that range. Okay. For example, vrita jyeshthabhyam til tatilau 5441. Don't try to understand this sutra now. Okay. It will simply complicate. It is just I am illustrating it to show the numbers. Just look at the numbers and see that they are outside the range. Okay, 5441 is not in that range. Adhavibhyam thyan iti sutramasti tadapi adhikarat bahihi. Kintu pumvadbhava ishyate. When followed by till or when followed by thyan, pumvadbhava is desired. We cannot get it from the sutra. Anena sutrena pumvadbhava na bhavati. Iti avyaptihi. Avyapti is where the sutra does not cover all the required cases. Anishtasthale pravruttihi ativyaptihi. On the other hand, ativyapti is a dosha. If you have read, I think you have tarka in your things, you should know what is avyapti, ativyapti. It is common to all shastras everywhere. Wherever you give a definition or a rule should be free from these errors or dosha. Avyapti is a dosha, ativyapti is a dosha. Everywhere it is the same definition for avyapti and ativyapti. Ishtasthale apravruttihi avyaptihi. Anishtasthale pravrittihi, if the rule operates in cases where we do not want it to operate, sa avyaptihi, ativyaptihi iti kathyate. Yatha, deshya rupyadayaha asmin adhikare eva pachitaha. We have isha davasamaptav kalpab deshya deshiyaraha 5367, which is in the range. Deshya rupyata, rupya is also in the range. But we do not want pumvadbhava there. Teshu pareshu pumvadbhava na ishyate. Ataha ativyapti, avyapti, ativyapti pariharaya pariganam kartavyam iti vartikakaraha. So you just give a list of pratyayas following which there is pumvadbhava. It is not a range because the range is not correct. There are pratyayas outside the range where there is pumbadbhava. There are pratyayas within the range where there is no pumbadbhava. So, defining a range is not precise. Therefore, pariganam kartavyam. Let's just list the pratyayas following which there is pumbadbhava. Iti vartikam, ataha bahuni vartikani santyatra. It is just list of suffixes. When followed by these suffixes, there is pumbadbhava. Okay. Tra tasau. So, there is ta. Saptamyastral iti sutrena. Bahvishu. It is saptamyarthe. Bahutra iti rupam. Bahutra means in many places. So, many of these words might be familiar. You might not know the sutra. So, bahvi iti strilingat. Bahvi supu. It is the saptami bahuvachana pratyaya. And there is tral. Tra pratyaya. So, the sup is deleted by supodhatu pratipatika yoho. Bahvi tra it is thite. Pumbadbhavaha. Pumbadbhavati it is the atvata. Bahu. Bahvi is the meaning of bahu. So, bahutra iti rupam. Evameva bahutaha. Tra tasau it is the panchamyas tasil. So, bahutaha it is the from many direct, from many sides or from many. Many what depends on the context. So, bahutra it is the in many. Bahutaha it is the from many. So, ubhayatra pumbadbhavaha drishyate. Udaharanartham, bahutra nagare, nagari, nagarishu, iti uchyate. You want to say in many cities. Nagari, it is strilingam. So, bahvishu nagarishu, ityarthe, bahutra nagarishu. So, even if it is strilinga, the atra visheshane pumbadbhavaha drishyate. Evameva bahutaha ityadi. Okay. Tarap tamapau. So, there is tarap and tamap, which are both familiar pratyayas. So, tara is a pratyaya which shows comparison between two. Okay, chatura tara. Darshaniya tara. So, among two, atishayena darshaniya. She is more pretty or more good looking. Darshaniya is good looking. So, dvivachana vibhajyopapade tarabiyasanau ityanena tara pratyaya. So, darshaniya tara. So, among two women, she is more beautiful ityarthe, darshaniya ityasmate tara pratyaha, pumbadbhave krute darshaniya tara. Evam darshaniya tama. Asam atishayena darshaniya. So when the comparison is between two, it is tarap, and when it is between many, it is tamap. So she is the most beautiful among all these ityarthe. Atishayene tamabhishthanau ityanena tamap pratyaha, tatravi pumbadbhavaha drishyate, darshaniya tama. Gharupa kalpa chela bruva gotra matahateshu nyonekacho hrasvaha iti vakshyamanaha hrasvaha paratvat pumbadbhavam badhate. So, there is this sutra which we will see in samasashraya vidhi. So, this says, eteshu pareshu nyaha nama nyantasya bhashita punska jaha ni. Ni is a stri pratyaya. Ni is nishkin. Strilinga words which are ending in e kara will mostly be nyantas. Okay. So, tadantasya anekachaha hrasvaha syat ghadishu pareshu. So, when followed by all these, there is hrasva. Okay. So, now there is a question. Tarap tamapau ghaha. Tarap and tamap are called gha. And gha is included in the list. So, now when there is a form like patvi tara. Patvi is the form like we had darshaniya tara. She who is the most beautiful. Similarly, patri tara iti bhavati. Patri is the most skilled. Patri is one who is very skilled at something. So, patri ityasmat taraptatyaha tamapratyayova bhavati. Okay. So, by that sutra, gharupa kalpa ityanena harasvaha prapnoti, tasinadishvakritva suchaha ityanena pumvadbhavaha prapnoti, kim karaniyam iti prashnaha. Should we apply pumvadbhava or should we apply harasva? Okay. So, he says, paratvas pumbadbhavam badhate. This is the parasutra. 6343 comes after 6336. Therefore, if the range for, I mean, if the conditions for this rule are satisfied, then we will have hrasva and not pumbadbhava. So, the form will be patritara patritama. Pumbadbhava is ati patutara patutama iti syat. Patu ityasya strilinge patvi. Yadi pumbadbhavaha patutara patutama iti syat. Yadi hrasvaha tarhi patvitara patvitama. So, paratvat hrasvaha pumbadbhavam badhade iti uttatvat. Hrasva eva bhavati patvitara patvitama iti rupam. Charat Jati Yarav. So Charat and Jati Yarav. He is just giving a list of pratyas. Don't worry too much about them. They are all Tadhita pratyas which you are not, you might be familiar with Tarap and Tamap, but the others you might not be familiar with. It is just as a list, and I don't think even from the point of view of your examination, these are that important because they are not concerned with Samasa at all. So, I'll cover this, but don't worry too much about this. I mean, it's a huge list. So, if you cannot remember it right now, it is fine. Okay. So, it does not even hamper your understanding of Samasas. It is just directly concerned with Pumbadbhava, and it's okay. So, Charat Jati Yarav. Charat is a pratyaya. Bhutapurve Charat, that which was earlier. Purvam Patri, Patuchari, Purvam Patri, she was skilled earlier. So, she is not skilled now, ityartha. She has lost her skill due to lack of practice or whatever. So, the Charat pratyaya is pretty common. Chhatrachara, so that which is Chhatrachari, a previous student, an alumnus, Chhatracharaha, Chhatrachari, ityadi bhavati. Evam. Patvi, Purvam Patvi ityarthe, Patvi ityasma charat pratyaha, tasmin pratyaye pare pumadbhavah bhavati patuchari, evameva chhatrachari, chhatra ityasma charat pratyaye pumadbhavah bhavati chhatrachari, evam jatiyar pratyaha, patujatiya, prakaravachane jatiyar, patu sadrishi, she is similar to skilled, she is not actually skilled, but she is acting, she looks like she is skilled. Okay. So that happens, you think they are something, but they might not actually have the skill. They're either acting or they are good at putting on such a this. So patujatiya ityatra, patusadrishi ityartha. Okay. So I think somebody has sometime asked me a question about mahajatiya, what is the meaning? So the same, prakaravachana, mahatsadrishi. She looks like she is somebody great, but the actual antasattva for greatness is not there. So that is jatiyar. So tasmin pratyaye pare api pumadbhavah bhavati. Kalpab deshiyarav. So darshaniya kalpa. Ishad asamaptav kalpab deshiyarah. Prayena darshaniya. There is ishad asamapti. When you have this kalpab, these Tadhita pratyayas are all very good at conveying subtleties of meaning. So, Darshaniya is she is beautiful. Darshaniya kalpa, almost beautiful. So, it means that there is something, ishad asamapti, there is something lacking to give that complete beauty. So, vidvat kalpaha, almost a scholar. So, there is some lacuna in that scholarliness. Iti vaktum ayam pratyaha upayujyate kalpap pratyaha. So, darshaniya kalpa, darshaniya ityasma kalpa pratyaye pumadbhavah bhavati. Darshaniya deshiya. So, deshiya is also the same thing, prayena darshaniya. Both are given by the same sutra, kalpap deshiya deshiya raha. So, in that kalpap, when followed by kalpap, there is pumadbhava, when followed by deshiya, there is pumadbhava. But deshiya ityasmin pare pumadbhavah na bhavati. Okay? All these three are in the same sense. But desha prateya pare pumadbhavah nasti, itarayoho dvayoho asti, iti bheda. Meaning is the same. Rupap pashapau, darshaniya rupa, prashamsayam rupapu, prashastatvena drashtum yogya. So, her beauty is something which is to be praised, ityarthe, praiseworthy beauty, ityarthe. Rupa pratyaha, darshaniya rupa. And opposite is darshaniya pasha, yapye pasha putram, yapyam nama ninda, kutsitatvena drashtum yogya. She is beautiful, but the beauty is not praiseworthy. So, darshaniya pasha. So, it is that which has to be condemned. Okay, which is depending on the context. Why is a case, but the suffix indicates the sense of the rupap indicates the sense of prashamsa, whereas pashap indicates the sense of ninda. Thal iti pratyaha, bahutha iti prakaravachane thal. बहु प्रकाराः ऑफ मेनी काइंड्स इत्यर्थे बहुधा तिल क्षणौ प्रशस्ता वृकि वृकतिः सो वृकज्येष्ठाभ्याम् तिल्तातिलौ च छन्दसि इट इज अ वेदिक फॉर्म वृकतिः इज अ प्रशस्ता वृकि ग्रेट उल्फ वृकि नाम फीमेल उल्फ इत्यर्थः प्रशस्ता वृकि वृकतिः अजाभ्यो हिता अजथ्य एतदपि बोथ दीज आर आई थिंक वर्ड्स विच आर फाउंड इन छंदस अजाविभ्याम थ्यन थ्यन प्रत्ययः सो अजथ्य इत्यत्र अजाभ्यः हिता इत्यर्थः समथिंग विच इज गुड फॉर द गोट्स शसि बह्वाल पार्थस्य पुंवद्भावो वक्तव्यः सो व्हेन फॉलोड बाय शस बह्वाल पार्थस्य So, bahu and alpa. When the Purvapada indicates bahu or alpa. Bahvi bhyaha dehi. Vyarthe bahushaha iti. Bahval partha chas karaka danyatarasyam iti sutram. Shas, there are many shas pratyas which are in the tadhita prakarana. So, the shas which is given in bahval partha. That is bahvartha and alpartha. So, tatra pumadbhavaha bhavati. Bahvi bhyaha dehi. So, too many women or something. इत्यर्थे बहुशः देहि इति भवति शस् प्रत्ययः एवमेव अल्पाभ्यः देहि इत्यर्थे अल्पशः देहि बह्वल्पार्थस्य शस् प्रत्यये परे पुंवद्भावः भवति त्व तलोर् गुणवचनस्य सो त्व एंड त्वल व्हेन दे इंडिकेट गुण फॉर गुणवचन दैट इज अ वर्ड व्हिच इंडिकेट्स क्वालिटी शुक्लायाः भावः शुक्लत्वम् द प्रॉपर्टी ऑफ बीइंग वाइट Shukla is a gunavachana. It indicates the quality of whiteness. Ataha shuklayaha bhavaha ityarthe shukla tvam. Jasthite sasre sati shukla tvam. Eva meva shukla ta tva and tal. Tasya bhavas pratalau iti sutra na diyante. So shukla ta shukla tvam uhayohu samanaha artha. It means the property of whiteness. Gunavachanasya kim? कर्त्र्याः भावः कर्तृत्वम् सो कर्तृत्व इज नॉट अ आई मीन इट इज द प्रॉपर्टी ऑफ बीइंग कर्त्री सो कर्त्री इज डिराइव फ्रॉम एक्शन शी हू डस ओके नॉट फ्रॉम गुण शुक्ला इज अ गुण वेरस कर्तृ इज नॉट अ गुण इट इज अ क्रिया सो क्रियावचनस्य पुंवद्भावः न भवति सो इट विल नॉट बी कर्तृत्वम इट विल बी कर्तृत्वम कर्त्र्याः भावः कर्तृत्वम् इति भवति शुक्लायाः भावस्तु शुक्लत्वम् शरदः कृतार्थता इत्यादौ तु सामान्येन नपुंसकम् यू हैव अ फॉर्म लाइक कृतार्थता शरदः शरत् इज स्त्रीलिंग कृतार्थायाः भावः इति भवेत् सो तत्र कथं पुंवद्भावः इट शुड हैव बीन कृतार्थता एव सो दीर्घः एव श्रूयेत कथं पुंवद्भावः इति प्रश्नः कृतार्थता तत्र सामान्येन पुंसकम् वी सॉ दिस आल्सो इन दृढभक्तिः सो वी डोंट मेक इट अ विशेषण टू शरत् जस्ते कृतार्थस्य भावः कृतार्थम् इति नपुंसकम् तस्य भावः कृतार्थता इति भवति ततः शरदः इत्यनेन अव्ययः अन्वयः अतः कृतार्थता इत्येव रूपं भवति भस्याढे तद्धिते इति वार्तिकम् ढभिन्ने तद्धिते परे भस्य स्त्रियाः पुंवत्वं वक्तव्यम् भ इज अ संज्ञा यचिभम् इति सूत्रम् यकारादिषु अजादिषु सुप्रत्ययावधिषु प्रत्ययेषु सो वेन फॉलोड बाय एन अजादि प्रत्यय और अ यकारादि प्रत्यय ओके देन देयर इज द इनिशियल पार्ट विल बी कॉल्ड भ If you look at the pratyas which we have seen so far, they are all haladi, beginning with a hal. Whatever we started with, you have tasil, ta, tarap, kalpap, deshiyar, everything are those which start with a hal. So when followed by ajadi, there is a samnya called bha. And whenever there is bha samnya, adhe tadhite, when followed by a tadhita pratyaya, which is not dhak, other than dhak, there is pumbat bhava. It is when followed by all ajadi pratyayas, generally there is pumbat bhava. Dhabinne tadhite pare, striyaha pumbatvam vaktavyam ityarthaha. हस्तिनीनां समूहः, ए ग्रुप् आफ् फीमेल् एलिफेण्ट्स्. हस्तिनी इति स्त्रीलिङ्गं पदम्. हस्तिनीनां समूहः, अचित्तहस्तिधेनोष्ठक् इत्यनेन ठक् प्रत्ययः. हस्तिनी ठ इत्यस्ति, ठस्येकः इत्यनेन इकादेशः. द ठ इस् रिप्लेस्ड् बै इक. हस्तिनी इक. नौ बिकास् इट् इस् अजादि देर् इस् भसंज्ञा. सो अढे तद्धिते भस्य पुंवद्भवति इत्यनेन हस्तिन् इक इति भवति. किति च इत्यनेन आदिवृद्धिः. सो द इनिशियली देर् इस् वृद्धि हास्तिन् इक. नस्तद्धिते इत्यनेन टेः लोपः. हास्त् इक हास्तिकम् इति रूपम्. ओके, सो वेनेवर् देर् इस् एन् अजादि प्रत्यय विच् फालोस् देर् इस् पुंवद्भाव. ओके, अदर् देन् ढक् अढे किं रौहिणेयः. ढक् रोहिण्याः अपत्यं पुमान् इत्यर्थे रोहिणी इत्यस्मात् ढक् ढस्य ईय इति आदेशः. सो आयनेयिनीयः इत्यनेन ईयः. सो आयन् एय थर्ड्. सो देर् इस् एय आदेश. रोहिणी एय ईकारस्य अस्येति च इत्यनेन लोपे आदिवृद्धौ रौहिणेय. सो देर् इस् नो पुंवद्भाव देर्. स्त्रीभ्यो ढक् इति ढः अत्र गृह्यते. सो अढे तद्धिते इत्युक्ते ढक् भिन्ने. सो द ढक् विच् इस् कन्सिडर्ड् हियर् इस् ओन्ली स्त्रीभ्यो ढक्. द ढक् विच् इस् फार् स्त्रीलिङ्गस्. देर् आर् आल्सो अदर् ढक् प्रत्ययास्. अग्ने ढक् इति ढकितु पुंवदेव पुंवद्भावः भवति. स्त्रीभ्यो ढक् इत्यनेन यत्र ढक् प्रत्ययः तत्र पुंवद्भावः नास्ति. अग्नेर्ढक् इति ढकि पुंवद्भावः भवति. अग्नायी देवता अस्य स्थालीपाकस्य. अग्नायी देवता अस्य इत्यर्थे अग्नेः ढक् इत्यनेन ढक् प्रत्ययः. अग्नायी एय इति स्थिते पुंवद्भावे सति अग्नि भवति. अग्नि एय आदिवृद्धौ आग्नेय इति रूपम्. एनी क्वेश्चन्स्? सपत्नी शब्दः त्रिधा. हि नौ डील्स् इन् वाट् हेपन्स् टु द वर्ड् सपत्नी वेन् इट् इस् फालोड् बै अ प्रत्यय से अन् अजादि प्रत्यय. भस्याढे तद्धिते इति उक्तत्वात् अजादि प्रत्यये परे पुंवद्भावः भवति स्त्रीलिङ्गस्य. नौ विल् द सपत्नी गेट् पुंवद्भाव इस् अ क्वश्चन्. So he says sapatni shabda tridha. The word itself can be derived in three ways. Shatru paryayat, sapatna shabdat, shangaravaditvat, nini ekaha. Okay, so there is one question for the earlier one. Meaning of agnayi devata asya. Some havish, sthalipaka iti uktam. Sthalipaka is a kind of havish. So that which is meant for agnayi. Agnehe stri agnayi. Agnayi is the three devata of fire. So, that of which Agnayi is the devata. That Havish which is meant for Agnayi is that. Agnayi Havihi. So, Shatrupariyayat, Sapatna Shabdat, Shangaravaditvan, Nini Ekaha. So, the first word is derived from Sapatna. The word Sapatna means Shatru. रूढः नाम अव्युत्पन्नः शब्दः. इट् डस् नाट् हव् अ व्युत्पत्ति. सपत्न जस्ट् मीन्स् शत्रुः इत्यर्थः. तस्मात् नीन् इत्यर्थः. सपत्न प्लस् नीन् इत्युक्ते सपत्नी. शत्रुः स्त्री इत्यर्थः. सो इट् केन् ईदर् बी शत्रोः स्त्री, द वैफ् आफ् अ शत्रु, आर् अन् एनिमी हू इस् अ वुमन् इत्यर्थे सपत्नी शब्दः. भाषितपुंस्कः. Since in both cases it means a shatru, it is bhashita pumska. Samane pravritti nimitte ubhayohu bhavati. Okay. So therefore, sapatna and sapatni पुल्लिंगे अपि अस्ति स्त्रीलिंगे अपि अस्ति अतः अयं भाषितपुंस्कः एषः प्रथमः सपत्नी शब्दः समानः पतिः यस्याः इति विग्रहे विवाह निबन्धनं पतिशब्दम् आश्रित्य नित्यस्त्रीलिङ्गः द्वितीयः समानः पतिः यस्याः शी हू हैज द सेम हस्बैंड सो इफ देयर आर टू वुमेन both of them have the same husband then they are called sapatnis of each other co wife ityarthe sapatni shabda prasiddha that is the most famous meaning of the word so sapatni so ekasya eva patyuh nana patnyah parasparam sapatnyah okay so for each other say kausalya sumitra and kaikeyi each of them is a sapatni of the other so now this is a nitya strilinga there is no parallel in pullinga that is समाना पत्नी यस्य इति न भवति सो इट् इस् नाट् देर् इट् इस् अ नित्यस्त्रीलिङ्ग वर्ड् सपत्नी समानः पतिः यस्याः इट् इस् नाट् अ भाषितपुंस्काम् नित्यं सपत्न्यादिषु इति निपातनात् स्वभावः नीप्नत्वम् सो द पति स पति इति स्थिते नीप् भवति एण्ड् देन् देर् इस् नत्व पत् न इ सो देर् इस् नुक् एस् द आगम and it becomes sapatni iti bhavati samanasya sabhavah everything by the sutra nityam sapatnyadishu swami paryaya pati shabdena bhashita pumskah tritiyah samanah patih nama swami esyah sa so in the previous case it is a husband she was the same husband atra tu patih ityatra swami ityarthah the same master So there are many servants for the same master. So samanaha patihi asya asya ityarthe. Bhashita pumskaha. There can be sapatihi and sapatni. So if it is a man who has the same master, there can be a man and a woman. So say, pullinge api asti, stilinge api asti, ataha bhashita pumskaha. Okay, bhashita pumskaha tritiyaha. The first one, shatru paryayat nini bhashita pumskam. सपत्नी इति नित्यस्त्रीलिङ्गमेकम् पुनः स्वामिपर्यायपतिशब्देन भाषितपुंस्कः तृतीयः सो देर् आर् त्री कैण्ड्स् आफ् सपत्नी त्री डिफरेण्ट् मीनिङ्ग्स् आफ् सपत्नी आद्ययोः शिवाद्यण फोर् द फस्ट् टु अपत्यम् इत्यर्थे सपत्न्याः अपत्यम् इत्यर्थे अण् प्रत्ययः भवति शिवादिभ्यो अण् इति सूत्रेण सो सपत्याः अपत्यं सापत्नः The first sapatni, that is which we saw, Bhashita Pumska, Shatruhu Stri Ityarthe, Yaha Sapatni Shabdaha, Tasmada Shivadibhyo An. Sapatni A. Bhashita Pumskam, since it is a Bhashita Pumska, Bhasyadhe Tadhite Ityanena Pumbadbhava Bhavati. So there is Sapatna A. The Pullinga form of this sapatni is Sapatna Shatruhu Ityarthaha. So Sapatna A Iti Bhavati. यस्यति च इत्यनेन अस्य अकारस्य लोपः सपत्ना आदिवृद्धिः द फस्ट् वन् विल् गेट् वृद्धि बिकास् इट् इस् नित् सो सापत्नः सो सापत्नः नाम शत्रोः पुत्रः द सन् आफ् द एनिमि हु इस् अ वुमन् इत्यर्थे सापत्नः इति शब्दः आल्सो द सेकेण्ड् सपत्नी विच् इस् अ को वैफ् हर् सन् इत्यर्थे सपत्नी इत्यस्मात् अन् नित्यस्त्रीलिङ्गत्वात् पुंवद्भावः न भवति सेन्स् इट् इस् कम्पल्सरी स्त्रीलिङ्ग देर् इस् नो पुंवद्भाव यस्येति च इति अकारलोप ईकारलोपः ओके इट् इस् नाट् अलोप सारी सपत्नी इत्यत्र ईकारस्य लोपः सो सपत्न अ एण्ड् देर् इस् आदिवृद्धि अगेन् द फार्म् इस् सापत्नः सो सपत्याः अपत्यं सापत्नः कः अर्थः शत्रोः पुत्रः इति अर्थः अथवा सपत्न्याः The son of a co-wife. Ityarthepi sapatnaha ityeva rupam. Rupam samanam, kintu ekatra pumvadbhavaha drishyate, aparatra pumvadbhavaha naasti. Tritiyattu, linga vishishta paribhashaya, patittarapada lakshanaha anya eva, natu anu. For the third sapatni, samanaha patihi namaswami esyasa iti vigrahe. So patittarapada lakshanaha anya, dityadityadity पत्युत्तर पदान्यः वेर् एवर् पति इस् द उत्तर पद यु हाव् ण्य एस् द अपत्यर्थक प्रत्यय प्रत्यय इस् ण्य न तु अण् शिवादौ रूढयोरेव ग्रहणात् बिकास् इन् द शिवादिगण only the Rudha Shabdas, that is the word Sapatna for Shatru is Rudha, it does not have a Vyutpatti. Why is Shatru called a Sapatna? There is no Vyutpatti and therefore it is Rudha. And also the second one, Sapatni Ityatrapi Rudhihi. Okay, Vai Rudhi, it means a co-wife. It could mean something else, that is Swami, but Rudhya Sapatnim Eva Bodhayati Ityataha. Rudhayor Eva Grahanat. Tritiyat Nya Pratyah. In the third case, we have Nya. Tatra Kim Bhavati Sapatni Ya Kim Bhavati. Ayamapi Bhashita Pumskaha Tasmat Bhasyadhe Tarjiteti Pumvad Bhavatha. Atra Pumvad Bhave Sapati. In the first case, it is Sapatna is the Pullinga form and Sapatni is the Srilinga. Here, Sapati is the Pullinga and Sapatni is the Srilinga. Ataha Pumvad Bhave Sapati iti Bhavati Sapati Ya. Yasyati Chaitanena Ilopaha Adivirdhihi Sapatyaha iti Rupam. So, Samana Swamikayaha Kasyashit Putraha. It is the son of another servant of your master. So there is one person, there is a master. So there are other servants. So the son of one of those servants is called Sapatyaha. So Sarvamapi Sapatni Shabna Deva Nishpannam Kintu Bhinnam Rupam Bhavati. Okay. Any questions? Somebody had raised a question regarding Sapatni last class. I don't remember who. So is it clear now? Any questions? Yes,
hello. Hello. Yeah. So, just to clear the confusion, can you just so when you do the vigraha with three of us, three of the different way. So, are we going to do like samanaha patihi yasya sa, or for all the three, or at least first and third one?
No. I showed the vigraha. The first one is Sapatna is Rudha. You do not have a vigraha. It is just Sapatni. Sapatna Tri. Itevarthaha. Sapatna means Shatru. Therefore, Sapatni is also a Shatru. Stri. Shatru Stri. Itevarthaha. Dvitiyatra Samanaha Patihi Asyaha. Iti vigraha. So, the second and third both have Samanaha Patihi Asyaha. But the word pati means differently. In the first case, it means a husband. And in the second case, it means a master. So, Swami Paryaya. Ekatra Swami Paryaya. Ha, paratra. Dhava Paryaya.
Vivaha Sambandha.
Ha, Vivaha Sambandha. The second one is just a Swami Paryaya.
Okay,
that's where I got confused. Yeah. So we'll move on. Thakcha Soshta. So we still have the list of a few other. This. So again, Thak and Shas Pumbadhavaha Bhavati. Bhavatyaha Chatraha Bhavatkaha Bhavadiyaha. Bhavatash Thakcha Sau. So, the word bhavat will have thak and chas. When it means yours, tasyedam ityarthe, bhavatyaha ityarthe, bhavatkaha chhatraha, bhavadiya chhatraha. So, bhavadiya is a very common form. Bhavadiya, yours ityarthe, bhavadiyaha iti prayogaha. Tatra bhavatyaha iti adivaktavyam, tarhi bhavati ityasmat thak shasva bhavati, tatra pumadbhavesati. Bhavatkaha bhavadiyaha iti rupam. So, eka dvartikam, eka tadhitecha iti sutram cha na kartavyam. Sarvanamno vrittimatre pumvadbhavaha iti bhashyakareshtya gatarthatvat. So, this vartika is for bhavat. I mean, there is only thak and shas are given only for the bhavat shabda. There is also another sutra called eka tadhitecha. Eka shabdasya. Taddhite uttarapade cha pare hrasvaha syat iti sutram. Yatra eka iti bhavati strilinge. Yatha ekasyaha bhavaha इत्यर्थे एका इत्यस्मात् त्वल् त्व भवति अथवा तल् भवति तत्र ह्रस्वः नाम एक इति भवति इति एवमेव एकस्याः शाटी एकशाटी तद्धिते पदे उत्तरपदे च परे ह्रस्वः भवति इति सूत्रम् सो उभयमपि न कर्तव्यम् बोथ् आफ् देम् आर् नाट् रिक्वैर्ड् इस् वाट् हि सेस् वै सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेष्ट्या गतार्थत्वात् वेरि इम्पार्टेण्ट् रूल् फार् युर् एक्साम् ऐ डोण्ट् नो बट् अस् इन् जनरल् वेन् यूसिङ्ग् संस्कृत् सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः आल् सर्वनामपदास् वृत्तिमात्रे इन् आल् वृत्तीस् वृत्तिमात्रं नाम सर्वासु वृत्तिषु इत्यर्थः पुंवद्भावः भवति ओके एव्रीवेर् if it is a sarvanama we will have pumvad bhava okay for example I mean these are questions which I have found so often bhavatah putrah bhavat putrah bhavati bhavatyah putrah kim bhavati iti prashnah bhavatyah putrah itasyate bhavati putrah va bhavat putrah va bhavat putrah eva kimartham sarvanamnah vritti matre sarvasu vrittishu pumvad bhavah so in any samasa you take or any kridanta any krit any tadhita any ekashesha sarvanama will always have pumvad bhava so you will not hear the strilinga form of the sarvanama in any vritti okay so sarvanamnah vritti matre pumvad bhava so because of that this vartika is not required bhavat is a sarvanama because of that not just when followed by thakta and shas and followed by any tadhita it will anyway get pumvadbhava bhavatkaah bhavadiyaah iti bhavatyeva evam ekatadhite cha ityapi na karaniyam eka ityasya sarvanamatvam asti atah pumvadbhave sati eka iti bhavatyeva ityarthah etadvartikam ekatadhite cha iti sutram cha na kartavyam sarvanamno vritti matre pumvadbhavah iti bhashyakareshtya gatarthatvat sarvamayah sarvasyaah agatah so that which has come from everything ityarthe mayaccha iti sutrena maya pratyah sarva maya iti sthite sarvamayah sarvakamyati sarvam atmanah icchati ityarthe kamyaccha iti kamyach pratyah so sarva kamya iti sthite sarvakamya iti bhavati sarvika bharya yasya sah sarvika a servant a maid servant so sarvika bharya yasya sah ityarthe सर्विका इत्यस्य पुंवद्भावे सर्वक सर्वकभार्यः सर्वप्रियः सर्वाप्रिया यस्य सः सर्वप्रियः सो सर्वत्र पुंवद्भावः दृश्यते सो हि इस् शोयिङ्ग् एक्साम्पल्स् आफ् डिफरेण्ट् वृत्तीस् दिस् इस् तद्धिता दिस् इस् कृदन्त कृद्वृत्ति तद्धितवृत्ति कृद्वृत्ति दिस् इस् समासवृत्ति एट्सेट्रा सो इन् आल् वृत्तीस् you will have this so this is actually sanadyanta dhatu vritti so purvasya eva idam vastresha jagyadva iti lingat sarvanamnah vritti matre pumvadbhavah iti uchyate purva padasya va uttara padasya va iti prashnah purvasya eva idam so purva padasya vritti matre pumvadbhavah itteva vastresha jagyadva iti lingat निमुच्यते तेन सूत्रेण भस्त्रैषा जाज्ञा द्वास्वा नैपूर्वाणामपि इति स्त्रीप्रत्ययप्रकरणे अस्ति फैण्ड् इट् इन् स्त्रीप्रत्ययेन इट् सेस् एषा द्वा इत्येतयोः सर्वनाम्नयोः साकच्कयोः टापि परे इत्त्वं विधीयते सो फार् दिस् सर्वनाम काल्ड् एषा एण्ड् द्वा वेन् फालोड् वेन् दे हेव् द अकच् प्रत्यय एण्ड् वेन् फालोड् बै टाप् देर् इस् इत्वा विच् इस् गिवन् Yeah, that is what this sutra says. Now, sarvanamnaha vritti matre pumvadbhavaha. If it just says any sarvanama in any vritti, if it gets pumvadbhava, this akach is a tadhita. So, when followed by akach, if there is pumvadbhava, then there is no tap. Tapi pare itvam vidhiyate. Okay, when followed by tap, there is itva. But, if it already gets pumvadbhava, tap eva nabhavati. Tarhi itvam kutaha. So there is no possibility of getting itva and therefore the sutra itself will be waste. That is considering esha and va in the sutra will be waste. Ataha kimuchyate purvasya eva idam. Yatra kinchit purva padam asti. So if it is Purva Pada to something else, then only we have Pumbadbhava. It is Purva to something, either to a Pratyaya or to a Pada. Then only we have Pumbadbhava. Tena Akachi Ekashesha Vritta Uchana. So therefore in Akach. So Akach is not, Akach is a special suffix. Okay. All suffixes are added after the this, right? Say for example, if you are adding say tarat, you will add it after it. Sarva tara iti padat padasya paraha bhavati pratyaha parascha iteva hikaraha. Akach tu avyaya sarvanam nam akach praktehe. It falls in between the word. Okay. Sarvika ityasti sarva ityasmat akach pratyaha. Sarva akarat purvam akach bhavati. Madhye patati. It is not added to at the end of a word. It is added in between a word. Okay. So in this case, there is no purvatva. Sarva shabdasya purvatvam nasti. Right. So if you are adding a pratyaya after sarva, then it will be purva. But when you are adding something in between, there is no purvatva. Therefore, akach pratyaye pare pumvadbhava na bhavati. Na bhavati ityukte sarvika ityeva rupam. Okay. Punaha sarvaha sarvacha sarvacha sarvacha. So many ekashesha bhavati sarva ityeva bhavati ekashesha vrutta api ekameva padamasti. There is a single word, there is nothing which follows or nothing which precedes. Therefore akachi ekashesha vrutta ucha pumvadbhavaha na bhavati. So in akat and ekashesha there is no pumvadbhava. Everywhere else sarvanamnah pumvadbhavah bhavati. Any questions? Agrimam vartikamasti kukutyadinam andadishu pumvatvam vaktavyam ityasah. The words like kukuti, when followed by words like anda, there is pumvadbhava. Kukutyaha andam, the egg of a hen. Kukuti, it is strilingam. So andam, it is tete. Kukuta andam, iti rupam. Kukuta andam. A cock cannot have an egg. Kukutasya andam iti nabhavatyeva. Kukutyaha eva andam bhavati. Tatra kukuta andam iti rupam. Because there is pumvadbhava. Mrigyaha padam, the foot of a female deer. Mriga padam, mrigi ityasya pumvadbhave, mriga iti bhavati. Mriga kshiram, mrigyaha kshiram, the milk of a she deer. Kaka shavaha, kakyaha shavaha, the nestling of a crow. Satra sarvatra pumvadbhavah drishyate, kaka shavaha ityatra. So both the Purvapada and the Uttarapada has been specified in the Gana. Okay, so for such words you have Pumbadbhava. Kyang Maninoscha iti sutram etayoho parataha pumbat. When followed by Kyang and when followed by the word Manin, there is Pumbadbhava. Eniva acharati etayate. Etaha iti pullinge, eni iti strilinge. Chitravarana ityamaraha. So Amarakosha says the word eta means multicolored, whereas yagikaha in the Vedic sampradaya eta means white. Either case etaha, it is an adjective, a color, it means a color. So etaha iti pullinge, eni iti strilinge. Eni iva acharati, that which behaves like it is eni. Ityarthe eni ityasmat kyang pratyaha. Okay. So there is kyang which is given by kartuhu kyang salopascha. So kyang pratyek pare pumbad bhavati eta iti bhavati eni ya iti sthite eta ya iti bhavati rasivilhe etayate. Similarly shyeni iva acharati shvetayate. Shyetaha nama shvetaha, shveta paryayaha eva. Shyetaha ityasya strilinge shyeni, it means white. So tatra api shyeni va acharati shyetayate. Kyang pratyaye pare pumvadbhavah bhavati. Similarly, Manini ityuttara pade. Okay. When followed by the word Manini, there is Pumbad Bhava. Before that, there is a question. Kukkuta and Kukkuti, how to discern when to apply Pumbad Bhava? Always apply it. I mean, the Rupa has Pumbad Bhava. See, you cannot have Kukkutasya Andam. Okay, the form is not there at all because a cock cannot have an egg. So, Kukkutyaha Andam Ityeva Rupam. Sarvada Pumbadbhava Bhavatyeva Kukkutandam Ityeva Samasaha. Vigraha Kukkutyaha Andam Ityeva Samasastu Kukkutandam Ityeva. So, there is Pumbadbhava compulsorily. So now, Manini iti uttarapade pare. Okay, so there is another question. Our book says Shyeni is a female hawk and Shyeta is a male hawk. Tasmin arthepi Shyeta shabdasya prayogaha Shyeta. Shyena. But I don't think, because the male hawk is also called Shyena and not Shyeni, as far as I know. Shyenaha ityeva padam. I'll check this in the dictionary. Shyeta ityasya hawk ityasya prayoga hastiva iti drashtavya. Asti chet tadavi bhavati. Vyakhyane tu shweta pariyayaha ityeva dattam asti. Shyeni is a female hawk is correct. But will the pullinga be Shyeta or Shyena is a question, because Shyenaha ityeva maya shrutam, hawk ityarthe. I'll just check it. So if that is the case, then but if it is a Shyena, then Shyena yate iti bhavet, Shyeta yate iti na bhavati. So Shyeta ityasya Shyeni iti the natva there is varanad anudhatta topadhatto naha. Okay, the rule, Sri Pratyaya rule is Varanat Anudatat Topadhat Tahanaha. Okay, so it is on a Varanamachaka that we have Nish and the Takara is replaced by Nakara. That is why you have Shyeta and Shyeni. Similarly, Eta and Eni. So for that Natva, it has to be a Varanamachaka. Otherwise, there will not be the Nakara for Takara. It should have been actually been Shyeti, right? It is becomes Shyeni because of that rule. Varnad anudakat topadhatto naha. Takarasya akara deshaha. Varnamasaka deva sahapratyaha vidhiyate. Utahatra varnamasakatvam eva yuktam iti mama vipraya. Because, so see, if Shyeta, I doubt it because a male hawk is Shyena. And this given here is Shyetayate, not Shyenayate. Spelling mistake, it could be a spelling mistake or it could also be a grahana. Because Shyeni is a female hawk, you look up Shyeni as a female hawk and then you assume Shyeta is a male hawk. That could have been done. So, I think it has to be a Varnavachaka. Now, there is a question here. Manini is the word. Manini shabde pare pumbadbhava iti. Now, Manini shabde uttarapade pare striyah pumbadityanena eva pumbadbhava siddhyati. The word manin atmanam darshaniyam manyate. So, there is manaha ityanena khach pratyaha. Atmanam darshaniyam manyate. Darshaniya manini. She who thinks herself as beautiful. Ityarthe, Manini shabde uttarapade, Sriyah pumbat ityanena iva pumbadbhavaha bhavati. Okay. So there we will have darshaniya Manini. So why do we need Manini in this sutra? Asamanadhikaranartham, astrilingartham cha. So here it is to get pumbadbhava when there is no samanadhikaranya. When it is atmanam darshaniyam manyate. Darshaniya and Manini are the same person. She herself is beautiful and she is the person who thinks that. So, Samana Adhikaranyam Asti. Swabhinnam kanchit darshaniyam manyate. She who thinks something, somebody else as beautiful. Ityarthe samanadhikaranyam nasti. Darshaniya bhinna. She who is beautiful is different. Manini. She who thinks is different. So samanadhikaranya abhaveti umadbhavaha bhavati manin shabde pare. Ataeva kyam maninoshta ityatra manin shabdasya grahanam. Ataeva swabhinnam kanchit darshaniyam manyate ityatra api darshaniya manini ityeva rupam. Atmanam yadi darshaniyam manyate tarhi striyah pumvat ityanena eva pumvadbhavaha siddhyati. Swabhinnam kanchit darshaniyam manyate darshaniya manini. Darshaniyam striyam manyate. On the other hand, astrilinga, if it is not pullinga at all. Darshaniyamani chaitraha. He who thinks that she is beautiful. It is not a strilinga at all. Mani iti pullinge pare api pumvadbhavaha bhavati darshaniyamani. Kyang mani noshta iti vishishya grahanat. So these are all the sutras which give pumvadbhava. Pumvadbhava vidhayakani sutrani imani. Sutrani vartikani cha. So there are also rules which prevent pumvadbhava. Pumvadbhava nishedha sutrani api santi. Itah param pumvadbhava nishedhaha. Na kopadhayaha. Kopadhayaha striyaha na pumvat. A strilinga word which has kakara in the upadha. Ka upadha. Upadha is the penultimate letter. Alontyat purva upadha. Antyad alaha purvaha. That which precedes the final letter is called upadha. If the upadha happens to be kakara, then there is no pumvadbhava. Pachika bharyaha. Pachika bharya yasya saha. So if there was a pumvadbhava, it should have been pachaka bharyaha. But pachika ityatra upadhayam kakara asti. Ataha pumvadbhava nasti. Pachika bharyaha. Rasika bharyaha. Rasika bharya yasya saha ityatra. Tatra api kakara upadhayam asti. Ataha pumvadbhava nasti. Madrikayate. Madrika iva acharati. Okay. Kyang maninoshtayatyanena kyang pratyaye pare pumvadbhavah vihitaha. Sopi nishidhyate. So this is a nishedha for all. Striyah pumvat ityanena praptasya pumvadbhavasya. Kyang maninoshtayatyanena praptasya pumvadbhavasya. Sarvesham api nishedhaha. Sarvika bharya yasya saha. Okay. So there is a question.